అకస్సవర్ణే దీర్ఘ అత్ర పదత్రయం విద్యతే అకః సవర్ణే దీర్ఘ ఇతి అకః ఇతి షష్ట్యేకవచనం సవర్ణే ఇతి సప్తమ్యేకవచనం దీర్ఘ ఇతి ప్రథమైకవచనం సూత్రార్థః అత్ర లఘుకౌముద్యాం అకః సవర్ణే అచిపరే పూర్వపరయోః దీర్ఘ ఏకాదేశ స్యాత్ ఇతి వర్ణితః. ఇదానీం అస్మాభిః తత్ర సంహితాధికారే షష్టాధ్యాయస్య ప్రథమే పాదే ఏకోత్తర ఏకశతమం సూత్రం అస్మాభిః స్వీకర్తవ్యం. కృపయా సర్వే స్వీకుర్వంతు. షష్టాధ్యాయస్య ప్రథమే పాదే అష్టాధ్యాయ్యాం ఏకోత్తర ఏకశతమం సూత్రం స్వీకుర్వంతు. తత్ర అకస్సవర్ణే దీర్ఘ ఇతి వర్తతే. ఇదానీం సూత్రస్య అర్థకరణార్థం తత్ర అనువృత్తిః కిం ఇతి పశ్యామః. ఇదానీం ఇకో ఎణచి ఇత్యతః. ఇకో ఎణచి ఇతి సూత్రం తు తదః పూర్వమస్తి. తత ఇకో ఎణచి ఇత్యతః అచి ఇతి భవతి ఆగచ్చతి. ఏకః పూర్వపరయోః ఇతి అధికారః తు అస్త్యేవ. ఏకః పూర్వపరయోః అధికారః ఏకాదశోత్తర ఏకశతమ సూత్రపర్యంతం విద్యతే. తత్ర అస్మాభిః ద్రష్టుం శక్యతే. అతః ఏకః పూర్వపరయోః ఇతి అధికారః అస్తి. ఏవం ఇకో ఎణచి ఇత్యత్ర అచి ఇతి అనువర్తతే. అకః ఇత్యత్ర అత్ర అకః ఇత్యత్ర పంచమ్యేకవచనం అత్ర అకః ఇతి షష్ట్యేకవచనమితి మయా పూర్వముక్తం. తత్ పంచమ్యేకవచనమస్తి. కథం జ్ఞాయతే ఇత్యుక్తే అకః సవర్ణే అచిపరే పూర్వపరయోః దీర్ఘ ఏకాదేశ స్యాత్ ఇది సూత్రార్థః. అకః ఇత్యత్ర పంచమీ భక్తిః అస్తి. అక్ వర్ణాత్ సవర్ణే అచిపరే సవర్ణసంజ్ఞకే అచ్వర్ణే పరే సవర్ణే అచిపరే నామ సప్తమి. సవర్ణే సవర్ణసంజ్ఞకే అచ్వర్ణే పరే కిం భవతి ఇత్యుక్తే దీర్ఘ భవతి. దీర్ఘ నామ కిం? ఊకాలో హ్రస్వదీర్ఘప్లుతః ఇతి అస్మాభిః. తత్ర సంజ్ఞాప్రకరణే దీర్ఘ నామ ఊకాలో హ్రస్వదీర్ఘప్లుతః ఇత్యనేన అస్మాభిః జ్ఞాతం. అతః దీర్ఘ నామ అకారస్య దీర్ఘ ఆకారః, ఇకారస్య దీర్ఘ ఈకారః, ఉకారస్య దీర్ఘ ఊకారః, ఋకారస్య దీర్ఘ ఋకారః. ఏవం దీర్ఘ ఆదేశః భవతి ఇతి ఉక్తం. దీర్ఘ అత్ర విధేయః భవతి. దీర్ఘ ఇతి ప్రథమవిభక్తౌ అస్తి. ఇదానీం అస్మాభిః అకః ఇత్యత్ర ప్రత్యాహారే అంతర్గతాః వర్ణాః కే కే ఇతి అస్మాభిః జ్ఞాతవ్యం భవతి. కృపయా వదంతు, టైప్ కుర్వంతు. అకః ఇత్యత్ర అక్ ఇతి ప్రత్యాహారే కే కే వర్ణాః అంతర్భవంతి. అస్తు. ఆ ఇ ఉ ఋ లృ. అస్తు. లృ ఆ ఇ ఉ ఋ లృ. సమ్యక్ ఉక్తం. ఏవం అచ్చపి అస్తి. ఏవం అక్ అంతర్గతాః వర్ణాః ఆ ఈ ఊరు ఇతి ఏతే స్వరాః భవంతి. అచ్ అంతర్గతాః సర్వే స్వరాః సమాహితాః భవంతి. ఇత్థం అక్వర్ అక్ ఆ ఈ ఊరు ఇతి వర్ణానామనంతరం యది సవర్ణః భవతి. तर्हि पूर्वपरयोः स्थाने दीर्घः एकादेशः भवति। पूर्वपरयोः इति स्थाने दीर्घः एकादेशः भवति इति, पूर्वपरयोः नाम कथं पूर्वपरयोः इति आगतम् इत्युक्ते, एकः पूर्वपरयोः इति अधिकारः अस्ति अतः आगतम्। सूत्रार्थे तदपि निवेशितः, अकः सवर्णे अचिपरे पूर्वपरयोः स्थाने दीर्घः एकादेशः भवति इति सूत्रार्थः सम्पन्नः। इदानीं सवर्णः नाम किम्, केन सूत्रेण सवर्णत्वं विधीयते, प्रश्नः पुनः, सवर्णत्वं केन सूत्रेण विधीयते। सवर्णं नाम इत्युक्ते सवर्णसंज्ञाविधायकं सूत्रं किम्, अकारस्य सवर्णः कः इति ज्ञानार्थं तुल्यास्य प्रयत्नं सवर्णम्। अस्तु अस्तु, अनुदित्सवर्णस्य चाप्रत्ययः न, अनुदित्सवर्णस्य चाप्रत्ययः विधीयमान अविधीयमानयोः व्यत्यासं तत्र विधास्यति। अनुदित्सवर्णस्य चाप्रत्ययः इति सवर्णग्राहकं सूत्रं, सवर्णसंज्ञासूत्रं तु तुल्यास्य प्रयत्नं सवर्णम्। अस्तु, तुल्यास्य प्रयत्नं सवर्णं, तेन सूत्रेण सवर्णज्ञानं भवति। इदानीं दैत्यारिः इति उदाहरणमस्ति पुस्तके। दैत्य इत्यत्र पूर्वपदे अन्तिमवर्णः अकारः अस्ति, अकारः अक्वर्णः अस्ति, ततः परं अच्वर्णः अस्ति, सवर्णोऽपि अस्ति। अतः एतेन सूत्रेण दीर्घः आदेशः भवति। इदानीं प्रश्नः, दीर्घः नाम अस्माभिः एकारः अपि कर्तुं शक्यते, एकारः अपि दीर्घवर्णः अस्ति किल, किमर्थमत्र आकारः एव स्वीक्रियते? प्रश्नं पृच्छामि पुनः, किमर्थम् अत्र सूत्रार्थः एवमस्ति, दीर्घः एकादेशः स्यादिति। दीर्घः नाम दीर्घवर्णाः, सर्वे दीर्घस्वराः दीर्घः इत्यनेन गृह्यन्ते। इदानीम् आकारः एव किमर्थम् आगतम्, किमर्थम् ईकारः नागतः, किमर्थम् एकारः ईकारः नागतः? स्थानं भिन्नम् अस्तु, केन इदानीं केन सूत्रेण निर्णयः क्रियते? तत्र सूत्रं विद्यते तस्य कृते, स्थाने अन्तरतमः, स्थाने अन्तरतमः इति सूत्रेण आकारः आगच्छति। अस्तु, सम्यक् उक्तम्, स्थाने स्थाने अन्तरतमः इति सूत्रेण तत्र आकारः आगतः, अतः दैत्यारिः इति रूपं सम्पन्नम्। एवमेव श्रीशः, विष्णुदयः, होतृकारः इति। तत्र होतृकारः इत्यत्र किं भवति इत्यत्र, होता इत्यस्य अर्थः मया, होता भवति यागकरणे, यज्ञयागकरणे होता भवति, होताध्वर्युः, उद्गाता, ब्रह्मा इति चत्वारः यागकर्तारः भवन्ति। तत्र होता इदानीं ऋकारं कथम् उच्चारणं करोति इति तत्र होतृकारः भवति, होतृ ऋकारः, अतः होतृकारः इति आगतम्। एवं विष्णुदयः, श्रीशः, एवं बहूनि उदाहरणानि अस्माभिः वक्तुं शक्यते। इदानीं अहम् एकं इदानीं भवद्भिः उदाहरणं वक्तव्यम्। इदानीं प्रथमं अकार दैत्य अरिहि इत्यत्र अकार अकार अकारयोः उदाहरणमस्ति। इदानीं आकारस्य अकारस्य उदाहरणम् आवश्यकम्। आकारस्य विद्यालयः समीचीनम्। एवमेव आकारस्य आकारस्य उदाहरणम् तदेव उक्तं विद्यालयः इति विद्यालयः इति आकारस्य आकारस्य उदाहरणम्। इदानीं आकारस्य अकारस्य उदाहरणम् तपस आश्रम तपसाश्रमः ओ एवम् ओके विद्या अभ्यासः अस्तु समीचीनम्। विद्या अर्जनम् नो विद्या विद्यार्जनम् अर्जनम् विद्यार्जनम् अस्तु। एवमेव इकारस्य इदानीं श्रीशः इत्यत्र ईकार दीर्घ ईकारस्य रामाञ्जनेयः समीचीनम्। इदानीम् इकारस्य उदाहरणानि अस्ति इति अस्ति इति अस्ति इति अस्तु इकार इकारयोः ईकार इकारयोः अभवत्। इदानीम् ईकार इकारयोः अपि इदं तत्तु इकार इकारयोः अस्तु ईकार इकारयोः साध्वी इयम् अतिसमीचीनं साध्वी इयम् कौमुदी इति अतिसमीचीनं कवि प्लस ईश्वरः इकार ईकारयोः कवि ईश्वरः अस्तु। इदानीम् उकारस्य वाणी ईशः अस्तु उकारस्य गुरु उपदेशः अस्तु सम्यक् उक्तम् गुरु उपदेशः। स्मरतु उमां स्मरन्तु उमां स्मरन्तु प्लस उमां स्मरन्तु उमां हा भानु उदय सम्यगस्ति गुरु उक्ति सम्यगस्ति। ऊकारस्य उकारस्य ऊकारस्य उकारस्य साधु प्लस उक्तिः तदपि सम्यगस्ति। ऊकारस्य एकम् उदाहरणम् अपेक्षितम्। ऊकारान्तशब्दः किम् अस्ति स्त्रीलिङ्गे ऊकारान्तः कटु प्लस् उक्तिः उपु उपध्मानीय उपूपध्मानीय सम्यगस्ति सम्यक् अति समीचीनम्। एवमेव तत्र ऊकारः किमपि अस्ति वा ऊकारान्तशब्दः अस्ति वा शब्दमञ्जर्याम् ऊकारान्तशब्दाः के के विद्यन्ते वधु प्लस् ऊर्मिका वधूर्मिका वधु उपदेशः वधूपदेशः धेनु तु उकारान्तः अस्ति ह्रस्व उकारान्तः अस्ति वधूशब्दः तदेव प्रार्थितं तदागतं वधू इति। एवं वधू उपदेशः वधूपदेशः सम्यक्। इदानीम् ऊकारान्तस्य ऊ इत्यस्य उदाहरणं वधू इति स्थापयन्तु किमपि ऊकारान्तं योजयन्तु अति समीचीनम वधु प्लस ऊर्ध्वम वधु ऊर्ध्वम वधु प्लस उक्ति ही तो उकारस्य वधु ऊर्ध्वम अति समीचीनम। हाँ एवं इदानीं ऋकारस्य तो उदाहरणानि विरलाः भवन्ति होत्रि ऋकारः होत्रिकारः इति अस्ति ऋकारस्य अहं न पृच्छामि। एवमेव तत्र ऋकारस्य तत् ऋकारस्य इदानीं अक्वर्णस् अक् प्रत्याहारे ऋकारोपि अन्तर्गतः भवति। इदानीं हा वधू प्लस् उत्साहः समीचीनम् ऋकारः तदा किम् अहं तत्र यद्यपि ऋकारः इति वक्तव्यं मया तथापि अहं ऋकारः इत्येव वदामि। इदानीं ऋकारस्य उदाहरणं पुस्तके न दत्तम्, आक्किति प्रत्याहारे तु अन्तर्गतः भवति, किं कर्तव्यम् अस्माभिः? उदाहरणं किं भवितुमर्हति इत्युक्ते तत्र होत्र लृ तत्र तदेव इदानीं किं भवति लृकारस्य अत्र अस्माभिः किं ज्ञातव्यम् इत्युक्ते यदि होत्र लृकारः इति आसीत् तदा किम् उत्तरं भवेत्? होत्र लृकारः इति आसीत् यदि आसीत् तत्र उदाहरणे किम् उत्तरं भवति? होतृकारः समीचीनं, होतृकारः इति एतदेव तत् अत्र यत् होतृ ऋकारः इत्यत् रूपमस्ति तदेव आगच्छति। हा होतृकारः इति लृकारस्य दीर्घः नास्ति, लृकारस्य दीर्घः नास्ति अत्र वर्णमालायां, लृकारस्य दीर्घः नास्ति, पितृ प्लस् ऋणम् इति अस्ति, पितॄणम् इति ऋकारस्य उदाहरणं तत्। एवं मातृ प्लस् ऋणं मातॄणम् इति तत् ऋकारस्य उदाहरणं भवति। इदानीं ऋकारस्य होत्र प्लस् ऋकारः ऋकारस्य दीर्घाभावात् किं कर्तव्यम् इत्युक्ते धृलृ वर्णयोः वितस्सावर्ण्यं वाच्यम् इति अस्माभिः पठितम्। तत्र नाज्झलौ इति सूत्रे अस्माभिः पठितं लृवर्णयोः मितस्सावर्ण्यं वाच्यम् इति, तत्र उषा भगिनी उक्तवती लृवर्णयोः सावर्ण्यम् अस्ति इति, तदेव स्मर्तव्यम् अस्माभिः। एवं तद्वार्तिकद्वारा होतृकारः तत्र होतृ प्लस् लृकारः अपि अस्ति चेत् तत् होतृ प्लस् ऋकारः इति परिवर्तितो भूत्वा होतृकारः इत्येव रूपं प्राप्नोति। तत्र कौमुद्याम् इतोपि वार्तिकानि सन्ति, ऋतिसवर्णे वा ऋतिसवर्णे वा इत्यादि वार्तिकानि सन्ति, वैकल्पिकरूपाणि अपि सन्ति, तत् सिद्धान्तकौमुद्यां पश्यामः। इदानीं तु चत्वारि उदाहरणानि एव अत्र लघुकौमुद्यां दत्तं, तथापि मया स्मारितं तत् ऋकारस्य दीर्घः नास्ति, ऋलृवर्णयोः मितस्तावर्ण्यं वाच्यम् इति वार्तिकमपि स्मृत्वा होत्र प्लस लकार यदि भवेत होत्रकार अस्माभिः कर्तव्यं भवति इत्येव स्मारितम्। अस्तु, अति समीचीनतया सर्वे उत्तरं दत्तवन्तः, अहम् अतीव सन्तुष्टोऽस्मि उदाहरण प्रदानेन। इदानीं एङः पदान्तादति इति अग्रिमं सूत्रं विद्यते। एङः पदान्तादति इति अत्र एङः पदान्तादति इति पदत्रयं विद्यते। तत्र एङः इति पञ्चमी एकवचनं, पदान्तादिति पञ्चमी एकवचनम्, अति इति सप्तमी एकवचनं भवति। पदान्तात् एङः इति पदान्तादिति शब्दम् एङः इति पदस्य विशेषणरूपेण आगच्छति। पदान्तादेङः अतिपरे किं भवति? पूररूपम् एकादेशः भवति। तत्र पूररूपम् इति पदं कथम् आगतम् इत्युक्ते, षष्ठाध्यायस्य प्रथमे पादे अस्माभिः नवोत्तर एकशततमसूत्रं द्रष्टव्यम्, अस्माभिः द्रष्टव्यं तत्र एङपदान्तादति इति सूत्रं विद्यते। ततः पूर्वम् अमीपूर्वः इति सूत्रं विद्यते। अमीपूर्वः इत्यतः अमीपूर्वः इति सूत्रं भवद्भिः कृपया पश्यन्तु सर्वे, अष्टाध्यायीं स्वीकुर्वन्तु। अमीपूर्वः इति सूत्रं कुत्र विद्यते इति एकवारं पश्यन्तु। अमीपूर्वः इति सूत्रस्य सङ्ख्या किम्? 107। अस्तु, अमीपूर्वः इति सूत्रात् पूर्वः इति पदम् अनुवर्तितं भवति। तत्र पदान्तादेङः पञ्चमीविभक्तिः, पदान्ताद्यः एकारः भवति, ओकारः भवति, एङ् इति प्रत्याहारः, एङ् प्रत्याहारेण एकारः ओकारः स्वीक्रियते। पदान्ते यः एकारः ओकारः भवति तस्मात् अतिपरे ह्रस्व अकारे परे। इदानीम् अति इत्यत्र ह्रस्व अकारः इति कथम् आगतम्? अति इत्यत्र ह्रस्व अकारः इति कथम् आगतम्? कथमस्मान् तपरः तत्कालस्य इति सूत्रं विद्यते। तपरस्तत्कालस्य इति सूत्रं किं करोति? तत् सूत्रस्य कार्यं किम्? तपरकरणम्। अतिसमीचीनं, तपरकरणमेव तत् सूत्रस्य कार्यम्। तपरकरणं नाम किम्? तः परः, यस्मात् सः, तादपि परः, तपरः इति अस्माभिः विग्रहवाक्यः उक्तः पूर्वं, विग्रहवाक्यमुक्तम्। अतः तपरकरणं नाम अकारस्य यदि तत्कालस्यैव ग्रहणम्। अतिसमीचीनं, तत्कालस्यैव ग्रहणम्। तत्कालः नाम यदि ह्रस्व अकारात् परं तपरकरणं विद्यते तर्हि तत्कालस्यैव ग्रहणम् एव, ह्रस्वस्यैव ह्रस्वभेदानामेव ग्रहणं भवति, न तु दीर्घप्लुतानाम्। अतः अत्र अति इत्यत्र तपरकरणं विद्यते। एवं पुनः मया कृपया अन्यथा मा चिन्तयन्तु, अहं भवद्भिः पूर्व पाठित सूत्राणां भवतां मनसि विद्यते वा इति परीक्षार्थं, तत्र स्मरणार्थं, पुनः स्मारणार्थमेव मया प्रश्नः पृच्छ्यते, न तु तत्र किमपि अन्यथा दृष्ट्या मया अस्माभिः पृच्छ्यते। केवलं तत्र स्मारणार्थं भवन्तः झटिति स्मरन्ति वा तद्विषयम् इति तदर्थमेव प्रश्नः क्रियते। यतः एतत् सर्वम् अस्माभिः पाठितम्। एवं तपरकरणम्, इदानीं कोदण्डरामन् महोदयः प्रश्नं पृच्छति, एतत् कस्मिन् अध्याये? तपरस्तत्कालस्य वा? तपरस्तत्कालस्य इति सूत्रं संज्ञाप्रकरणे विद्यते। तपरस्तत्कालस्य इति प्रथमाध्याये विद्यते। वन् नाट् सेवेन् वा? वन् नाट् सेवेन् षष्ठाध्याये, अमीपूर्वः इति सूत्रं षष्ठाध्यायस्य प्रथमपादे सप्तमोत्तर एकशततमसूत्रम्। षष्ठाध्याये अमी पूर्वः इदानीं अति इति तपरकरणं विद्यते अत्र ह्रस्वएकारे अकारे परे किं भवति इत्यत्र पूर्वः पूर्वरूपम् एकादेशः भवति पूर्वरूपम् एकादेशः स्यात् इदानीं एकपूर्वपरयोः इति सम्पूर्ण अधिकारस्यापि अनुवृत्तिः अत्र आगच्छति पूर्वपरयोः एक अनुवृत्तिः भवति पूर्वपरयोः पूर्वरूपम् एकादेशः भवति इदानीं यदि पदान्तयोः अत्र प्रधान अंशः अत्र पदान्तयोः एकार ओकारयोः तदा एव भवति इदानीं पदान्तः नाम किं सुप्तिगन्तं पदं सुप्तिगन्तं नाम सुप्रत्ययः यदा योजितः भवति तदनन्तरं यत् रूपं निष्पद्यते तदेव सुबन्तम् इति उच्यते इदानीम् अस्माकं शब्दमञ्जर्यां ये रूपा यानि यानि रूपाणि तत्र विद्यन्ते रामः रामो रामाः तत्र रामः इति पदान्तः रामः कृष्णः गोविन्दः इति सुप्तिगन्तं प्रमेत पदं भवति इदानीं पदान्ते एकारः ओकारः भवेत् तदेव अत्र सूक्ष्मांशः अस्माभिः अत्र ग्राह्यः अस्माभिः सूक्ष्मांशः अत्र पदान्तः नाम एकार ओकारः पदान्ते भवेत् इदानीम् उदाहरणं पश्यामः हरे अव इति अस्ति इदानीं हरे इति कुत्र अस्ति हरे इति रूपं हरे इति रूपं किञ्चित् कृपया वदन्तु हरे इति कस्य विभक्तेः रूपम् षष्ठीविभक्तिः वा हरेः इति षष्ठीविभक्तिः हरे इति हे हरे सम्बोधनप्रथमाविभक्तिरूपम् चतुर्थीविभक्तिः चतुर्थीविभक्तिः कथम् पञ्चमी कथम् हरे इति चतुर्थीविभक्तिः हरे इति उदाहरणं हरे इति अस्ति पुनः प्रश्नं पृच्छामि हरे इति हरे अव इत्यस्मिन् उदाहरणे हरे इति शब्दस्य विभक्तिः का पद्मावामि मीनाक्षी भगिनी किम् उक्तवती शति विभक्ति विसर्गः अस्ति षष्ठी विभक्तौ विसर्गः अस्ति इति पद्मावामी हरे इति शब्दस्य विभक्तिः का हरे अव इत्यस्मिन् उदाहरणे पद्मावामी कृपया उत्तरं ददातु पद्मावामी पद्मावामि नास्ति वा गीता भगिनी 5 and 6 इति वदति तदेव तदर्थमेव अहं पृष्टवान् एतत् बहु प्रधान अंशः सर्वैः सम्यक् ज्ञातव्यम् एतत् पद्मामामि पद्मामि गीता भगिनी कृपया पश्यन्तु हरिशब्दस्य हरिः हरि हरयः हे हरे इति भवति अतः हरे इति हे हे इति तु तत्र सम्बोधनार्थम् अस्माभिः अव्ययं तत्र अव्ययस्य योगः क्रियते हरे अव हे हरे इति भवति अतः हरे इत्यत्र पदान्तत्वम् इदानीं हर यदि हरेः इत्यत्र विसर्गरहित पञ्चमीभक्तिः वा विसर्गरहित षष्ठीभक्तिः वा अस्माभिः स्वीक्रियते चेत् तदा पदान्तत्वं न भवति येङः पदान्तादति इति आगच्छति शब्दः अकारान्तः वा इकारान्तः वा एतत् महोदय एतत् कीदृश एतत् प्रश्नः अवश्यम् इकारान्तशब्दः हरिशब्दः इदानीम् इकारान्तः अस्ति हरे इति हरः हरौ हराः इत्यत्र हरे इति भवन्तः पृच्छन्ति वा रामे इति वत् हरे इति अत एव मया पृष्टः हरे इति अकारान्तहरशब्दस्य सप्तमीभक्तिरूपमपि भवितुमर्हति परन्तु अत्र तु सः न इष्टः अत्र हे हरे अव इत्येव तत्र इकारान्तः सम्बोधनप्रथमाभक्ति एकवचनम् अस्ति हे हरे अव इति हरे इत्यत्र पदान्तत्वमपि आगतम् यतोहि सुप्तिगन्तं पदम् इति पदान्तत्वमस्ति अतः पदान्तत्वमस्ति पदान्ते एकारः अस्ति ततः परम् अकारः अस्ति तदपि ह्रस्व अकारः अस्ति अतः इदानीं किम् एकारः पूर्वपरयोः स्थाने एकारः भवति एकारः इति कथम् उक्तम् अस्माभिः सूत्रार्थे किम् उक्तम् इत्युक्ते पूर्वपरयोः पूर्वरूपम् आदेशः भवति इति पूर्वरूपं किम् पूर्वरूपम् एकारः एकारः एव आदेशः भवति एवं हरेव इति रूपम् आगच्छति इदानीं हरेव इत्यत्र तत्र यस्मार्क् इति यदस्ति तद् आधुनिककाले उपयुज्यमानं चिह्नम् पूर्वं तद् यस्मार्क् दीक्षितानां समये तत्र भट्टोजिदीक्षितानां सिद्धान्तकौमुदीलेखनसमये महाभाष्यसमये पाणिनिसमये तत्र यस्मार्क् तद् यद् अवग्रहचिह्नं यद्विद्यते तत् लेखनक्रमः नासीत् अतः इदानीन्तनकाले तदुपयुज्यमानं चिह्नं विद्यते अकारः पूर्वम् आसीदिति सः द्योतयति अतः पूर्वरूपचिह्नस्य पूर्वरूपचिह्नं पूर्वरूपसन्धिः यदा प्रवर्तते तदा एव अस्य चिह्नस्य उपयोगः इति कारणात् पूर्वरूपचिह्नम् अवग्रहचिह्नम् इति अपि तस्य व्यवहारः अस्ति परन्तु यत्र यत्र तच्चिह्नं विद्यते तत्र तत्र पूर्वं पूर्वरूपसन्धिः इति न कदाचित् अकारस्य स्थाने सवर्णदीर्घः यदा भवति गत्वा प्लस् आगच्छति गत्वा गच्छति इति डबल् एस् मार्क् वा किमपि स्थाप्यते तदानीं पूर्वरूपसन्धिः इति अस्माभिः न लेखनीयः पूर्वरूपसन्धिकरणार्थम् अस्माकं विशेष अंशद्वयमपेक्षितम् एकारः ओकारः पूर्वपदे अपेक्षितं पदान्ते अपेक्षितं पूर्वपदे अपि अपेक्षितं पदान्ते अपि अपेक्षितं पदान्तत्वं भवेत् पदान्तत्वं भवेत् तदनन्तरम् एकारः ओकारः भवेत् तदा एव पूर्वरूपसन्धिः अन्यथा तदवग्रहचिह्नं दृष्ट्वा सर्वत्र पूर्वरूपसन्धिः इति निर्णयः तत्र न करणीयम् अस्माभिः यस्य आकारं सूचकं वा डबल एस् मार्क् यदि अस्ति चेत् आकारसूचकं भवति. इदानीम् अस्माभिः एतत् सूत्रं पूर्वं नासीत् इति तस्यापि प्रमाणमस्ति महाभाष्ये. इदानीं तद् उच्यते चेत् तदपि तद् अवगमनं क्लेशाय भवति इति अहं न वदामि, परन्तु महाभाष्ये कदाचित् भाष्यकारेण तत्र चिह्नस्य अभावे हरेव इत्यत्र एवं कुत्रापि अन्यस्मिन् उदाहरणे तत्र चर्चा क्रियते, तत्र कथं ज्ञायते तत्र भेदः अस्ति इति इत्यादि चर्चा क्रियते, तदत्र न उपस्थाप्यते. परन्तु पूर्वं नासीत् इदानीन्तनकाले तत्र अकारः पूर्वम् आसीत् इति अवगमनार्थं, नो चेत् हरेव इत्यत्र किमपि अकारः पूर्वम् आसीत् सन्धिः अभवत् इत्यापि तत्र अस्माभिः ज्ञातुं न शक्यते इति कारणात् इदानीन्तनकाले स्थाप्यते. एवमेव विष्णो अव इत्यत्र हे विष्णो इति उकारान्तविष्णुशब्दस्य सम्बोधनप्रथमैकवचनं रूपं हे विष्णो अव मां रक्ष इति. इदानीं यदि पदान्तत्वं न भवति तदा किं स्यात्? यदि पदान्ते ओकारः नास्ति तदा किं भवति? पुनः पृच्छामि, यदि पदान्ते ओकारः एकारः न भवति ततः परं ह्रस्वकारः अस्ति चेत् किं भवति? पुनः पृच्छामि, पदान्ते यदि एकारः ओकारः न भवति चेत्, पदान्ते भवति चेत् पूर्वरूपं भवति. पूर्वरूपं नाम पूर्वपरयोः स्थाने एकारः ओकारः एव भवति. यदि पदान्ते न भवति चेत् उदाहरणार्थं भो अह इति अस्ति, भो अनम् इति उदाहरणम् अस्ति. भो अनम् इति पदा भो इति शब्दः तस्य पदत्वं नास्ति, इत्युक्ते भो इति पदं सुप्तिगन्तम् एव पदम् इति व्यवह्रियते व्याकरणशास्त्रे. इदानीं भो इत्यस्य पदत्वम् अस्ति वा नास्ति? भो इति अवान्तर इट् इस् अन् इण्टर्मीडियट् स्टेट् आफ् ए पद भो इति. तत्र अवान्तरकालीन स्थितिः भो इत्यस्य, तत्र भो इत्यस्य पदत्वं नास्ति, अतः भो अ इत्यत्र यचोयवायावः इति सूत्रेण यान्तावान्तादेशसन्धिः भवति. भो अनम् इत्यत्र किं भवति? भो अनम् इत्यत्र भवनम् इति रूपम् अव इति आदेशः भूत्वा भवनम् इति रूपसिद्धिः भवति. अतः येङः पदान्तादति इति यचोयवायावः इति सूत्रस्य अपवादात्मकं सूत्रम् इति अस्माभिः ज्ञेयम्. अवगतं वा? अस्तु. यस्मार्क् किं पृष्टम्? यस्मार्क् पूर्वरूप अपवादः, यस्मार्क् पूर्वरूप अपवादः इति, यस्मार्क् पूर्वरूप अपवादयोः किमपि न सम्बन्धः अस्ति. यस्मार्क् विषये मया पूर्वम् उक्तं तत् आधुनिककाले उपयुज्यमानं चिह्नं. तत् चिह्नं किमर्थम् उपयुज्यते? अकारः पूर्वम् आसीत् इति द्योतनार्थमेव उपयुज्यते. यदि तच्चिह्नं न भवति तर्हि कदाचित् भ्रमः स्यात्, तत्र अकारः आसीत् वा हरेव इत्यत्र हरे अव इति तत्र विभागं कर्तुं पूर्व अकारः आसीदिति कदाचित् भ्रमः स्यात्, अतः यस्मात् इदानीन्तनकाले योजितम्. महादेवन् महोदय, इदानीम् अवगतं वा यस्मार्क् विषये? अस्तु सम्यक् समीचीनम्। अग्रिमसूत्रं विद्यते सर्वत्र विभाषा गोः इति। इदानीं पदत्रयं विद्यते सर्वत्र विभाषा गोः। एकः पद सर्वत्र विभाषा गोः इति सूत्रं द्वाविंशतितमोत्तर एकशततमं सूत्रं षष्ठाध्याये 122 अस्ति। तत्र पदत्रयं विद्यते, कृपया स्वीकुर्वन्तु। अष्टाध्याय्यां एकः पदान्तादतीति अनुवर्तते, सम्पूर्णं एकः पदान्तादतीति अनुवर्तते। अत्र प्रकृत्या प्रकृत्यान्तःपादमव्यपरे इति 115 सूत्रम् अस्ति। तत्र प्रकृत्या इति च अनुवर्तते, तद् लब्धं वा सर्वैः। 115 सूत्रे 6115 सूत्रे प्रकृत्यान्तः पादमव्यपरे इति सूत्रमस्ति। तत्र प्रकृत्या इति अनुवृत्तिः भवति, एवं येनः पदान्तादति इति सम्पूर्ण अनुवृत्तिः, प्रकृत्यान्तपादमव्यपरे इत्यतः प्रकृत्या इति अनुवृत्तिः। सर्वत्र नाम लोके वेदे इति अस्ति। सर्वत्र विभाषा गोः, विभाषा नाम किम्? विभाषा नाम विकल्पः इति अस्ति। कस्य विकल्पः इदानीम् अत्र उच्यते? पूररूपस्य विकल्पः उच्यते। यदि पूररूपः न भवति तर्हि पूर किं भवति इत्युक्ते, तर्हि प्रकृतिभावः, प्रकृत्या इत्यनेन प्रकृतिभावः स्वीक्रियते। प्रकृत्या नाम प्रकृतिभावः। प्रकृतिभावः नाम किम्? निमित्ते सत्यपि सन्ध्यभावः प्रकृतिभावः। सन्धिः कर्तव्यं, तथापि अस्माभिः सन्धिः न क्रियते विशेषकारणात्, स एव प्रकृतिभावः इति उच्यते। इदानीं प्रकृत्या इत्यनेन प्रकृतिभावः स्वीक्रियते। प्रकृतिभावः अपि सन्धिः एव किल? प्रकृतिभावः अपि सन्धिः एव अवश्यम्। प्रकृतिभावः अपि सन्धिः, यतोहि सन्धिः नाम किम्? कदाचित् यत्र यत्र क्वचित् वर्णव्यत्ययः भवति स एव सन्धिः। स यत्र संहिता भवति तत्र वर्णव्यत्ययः भवति। यदि वर्णव्यत्ययः भवति सः वर्णव्यत्ययः संहिता वा, स एव सन्धिः इति उच्यते। इदानीं प्रकृतिभावः प्रकृतिभावसन्धिः इत्येव उच्यते, तदपि सन्धौ एव अन्तर्भवति। कदाचित् केचन वैयाकरणाः किञ्चित् भिन्नतया वदन्ति, तद्विषये अग्रिमकक्षायाम् अहं प्रकृतिभावस्य विषये तदेव अग्रिमकक्षायां वदामि। इदानीम् एतत् सूत्रं समापयामः, नो चेत् समयं गच्छति। प्रकृतिभावविषये अवश्यम् अग्रिमकक्षायां स एव आरम्भः, प्रकृतिभावः सन्धिः वा उत न, तत्र पक्षद्वयं किम् अस्ति, तत्सर्वं तस्य विषये एव अग्रिमकक्षायां वदामि। इदानीं प्रकृत्या नाम प्रकृतिभावः भवति। एनः इदानीं किं भवति इत्यत्र तत्र उदाहरणमस्माभिः एकं स्वीकर्तव्यं भवति। अत्र सर्वत्र विभाषा गोः इति सूत्रे तथ्यद्वयम् इत्युक्ते अस्माभिः विचारद्वयं स्वीकरणीयं भवति। गो इति शब्दः, गोविषये, गोशब्दस्य विषये एव एतत् सूत्रं प्रवर्तते। कुत्र प्रवर्तते? वेदे प्रवर्तते वा लोके प्रवर्तते वा इति प्रश्ने कृते सर्वत्र प्रवर्तते। विभाषा नाम किम्? विभाषा कस्य विभाषा क्रियते? पूररूपस्य विभाषा क्रियते। विभाषा नाम विकल्पः, विकल्पः नाम तदपि भवति एतदपि भवति इति तत्र निर्णयः। इदानीं पूररूपमपि भवति, यदि पूररूपं न भवति तर्हि प्रकृतिभावः भवति। तत् केन ज्ञातम्? अस्माभिः प्रकृत्या इति शब्दस्य अनुवृत्त्या ज्ञातम्। एवम् अत्र सर्वत्र विभाषा गोः इति सूत्रस्य सूत्रार्थः किम् अस्ति? ಲೋಕೆ ವೇದೆ ಚ ಏಗಂತಸ್ಯ ಗೋಹ ಅತಿವಾ ಪ್ರಕೃತಿ ಭಾವಃ ಪದಾಂತೆ ಇತಿ ಸೂತ್ರಾರ್ಥಃ ತತ್ರ ಲಿಖಿತಃ. ತತ್ರ ಉದಾಹರಣಂ ಗೋ ಅಗ್ರಂ, ತದ್ ಉದಾಹರಣಮೇಕಂ ಸ್ವೀಕುರ್ಮಃ. ಇದಾನೀಂ ಗೋ ಅಗ್ರಂ ಇತಿ ಸ್ವೀಕ್ರಿಯತೆ ಚೇತ್ ಗೋ ಅಗ್ರಂ ತತ್ರ ಏಗಂತ ಗೋ ಶಬ್ದಃ ಅಸ್ತಿ, ಪದಾಂತಮಪಿ ಅಸ್ತಿ, ಪದಾಂತಾದತಿ ಅನುವೃತ್ತಿ ಅಸ್ತಿ, ಅತಃ ಪದಾಂತಮಪಿ ಅಸ್ತಿ. ಏವಂ ಕಿಂ ತತ್ರ ಗೋ ಅಗ್ರಂ ಇತಿ ಪ್ರಕೃತಿಭಾವಃ ಇತ್ಯುಕ್ತೆ ಸಂಧಿರಹಿತ ರೂಪಮೇಕಂ, ಗೋಗ್ರಂ ಇತಿ ಪೂರ್ವರೂಪಂ ಸಂಧಿಃ ಅಪಿ ಭವತಿ. ಇದಾನೀಂ ಏಷಃ ಏವ ಅಸ್ಯ ಸೂತ್ರಸ್ಯ ಉದಾಹರಣಂ. ಇದಾನೀಂ ಏಗಂತಸ್ಯ ಕಿಂ ಚಿತ್ರಗ್ವಗ್ರಂ ಪದಾಂತೆ ಕಿಂ ಗೋಃ. ಇದಾನೀಂ ದಳಕೃತ್ಯಂ ಕ್ರಿಯತೆ ಅತ್ರ ಸೂತ್ರೇ. ಸೂತ್ರೇ ಏಗಂತಃ ಇತಿ ಕಿಮರ್ಥಂ ಉಕ್ತಂ ಇತ್ಯುಕ್ತೆ ಏಗಂತರಹಿತಸ್ಯ ಗೋಶಬ್ದಸ್ಯ ಅಸ್ತಿ ವಾ ರೂಪಂ. ಗೋಶಬ್ದಸ್ಯ ತು ಗೋ ಇತ್ಯೇವ ರೂಪಂ ಭವತಿ, ತತ್ರ ಏಗಂತತ್ವಮೇವ ಭವತಿ. ಏಗಂತರಹಿತ ಗೋಶಬ್ದಮಸ್ತಿ ವಾ ಲೋಕೇ ಇತಿ ಪ್ರಶ್ನಃ ಆಗಚ್ಛತಿ. ತದಾ ಉಚ್ಯತೆ ತತ್ರ ಚಿತ್ರಗು ಅಗ್ರಂ ಇತಿ ಗು ಇತಿ ಶಬ್ದಃ ಅಸ್ತಿ. ಅಸ್ಮಾಭಿಃ ತತ್ರ ಗೋಸ್ತ್ರಿಯೋರುಪಸರ್ಜನಸ್ಯ ಇತಿ ಸಮಾಸೇ ಸಮಾಸ ಪ್ರಕರಣೆ ಏಕಂ ಸೂತ್ರಂ ವಿದ್ಯತೆ. ತತ್ರ ಕಿಂ ಕ್ರಿಯತೆ ಗೋಶಬ್ದಸ್ಯೈವ ಗು ಇತಿ ವ್ಯವಹಾರಃ ಅಸ್ತಿ. ಗೋಶಬ್ದಸ್ಯ ಉಪಸರ್ಜ ತತ್ರ ಗೋ ಇತಿ ಶಬ್ದಸ್ಯೈವ ಹ್ರಸ್ವರೂಪಂ ಉಕಾರಃ ಚಿತ್ರ ಗು ಇತಿ ಅಸ್ತಿ. ತದಾ ಅಸ್ಮಾಭಿಃ ತತ್ರ ಚಿತ್ರ ಗು ಇತ್ಯತ್ರ ಗುಶಬ್ದಃ ಗೋ ದ್ಯೋತಕ ಇತ್ಯುಕ್ತೆ ಗೋಃ ದ್ಯೋತಕ. ಇದಾನೀಂ ಚಿತ್ರಗು ಅಗ್ರಂ ಇತಿ ಅಸ್ತಿ, ಅತ್ರ ಗೋ ಇತಿ ಶಬ್ದಃ ಅಸ್ತಿ, ಪರಂತು ಪದಾಂತಃ ಅಪಿ ಅಸ್ತಿ, ಪರಂತು ಓಕ ಏಗಂತತ್ವಂ ನಾಸ್ತಿ. ಅತಃ ಅತ್ರ ಪ್ರಕೃತಿಭಾವಃ ನ ಸಂಭವತಿ. ಪ್ರಕೃತಿಭಾವಸ್ಯ ಅಭಾವೇ ಇಕೋ ಎಣಚೀತ್ಯನೇನ ಉಕಾರ ಅಕಾರಯೋಃ ಚಿತ್ರಗ್ವಗ್ರಂ ಇತಿ ರೂಪಮೇವ ನಿಷ್ಪದ್ಯತೆ ಇತಿ ಅಸ್ಮಾಭಿಃ ಸ್ಮರ್ತವ್ಯಂ. ಅತಃ ಅತ್ರ ಏಗಂತಸ್ಯ ಗೋಶಬ್ದಸ್ಯ ಇತಿ ವಕ್ತವ್ಯಂ ಆಪನ್ನಂ. ಇದಾನೀಂ ಗೋ ಇತಿ ಶಬ್ದಃ ಪದಾಂತೇ ಏವ ಸ್ಯಾತ್. ಯದಿ ಗೋ ಶಬ್ದಃ ಗೋ ಅಹ ಇತಿ ಭವತಿ ಚೇತ್ ಕಿಮಪಿ ಗೌಃ ಇತಿ ರೂಪಂ ತತ್ರ ನಿಷ್ಪದ್ಯತೆ, ನೋ ಚೇತ್ ಕಿಮಪಿ ಅನ್ಯತ್ ರೂಪಂ ನಿಷ್ಪದ್ಯತೆ. ಪದಾಂತೇ ಏವ ಸ್ಯಾತ್ ತದಾ ಏವ ಏತಸ್ಯ ರೂಪಸಿದ್ಧಿಃ ಭವತಿ ಇತಿ ನಿರ್ಣಯಃ. ಏವಂ ಸರ್ವತ್ರ ವಿಭಾಷಾ ಗೋಃ ಇತ್ಯತ್ರ ಲೋಕೆ ವೇದೇ ಚ ಏಗಂತಸ್ಯ ಗೋಃ ಅತಿವಾ ಅತಿವಾ ಅತಿ ಇತ್ಯುಕ್ತೆ ಅಕಾರ ಹಸ್ವ ಅಕಾರೇ ಪರೇ ವಾ ಪ್ರಕೃತಿಭಾವಃ ಪದಾಂತೆ ಪ್ರಕೃತಿಭಾವಃ ವಾ ಭವತಿ. ಪುನಃ ಗೋ ಅಗ್ರಂ ಇತಿ ಉದಾಹರಣ. ಅವಗತಂ ವಾ ಸರ್ವೈಃ? ಜಾತಾ ಭಗಿನಿ ನ ಉಕ್ತವತಿ ಕಿಮಪಿ? ಅಸ್ತು, ಅಗ್ರಿಮಕಕ್ಷಾಯಾಂ ಅನೇಕಾಂಶಿತ್ ಸರ್ವಸ್ಯ ನಿಚ್ಚ ಅವಾಂ ಸ್ಫೋಟಾಯನಸ್ಯ ತದ್ರೆ ಕಿಂಚಿತ್ ಸಮ್ಯಗಸ್ತಿ ಪಶ್ಯಾಮಃ. ಅಸ್ತು, ಏನಾಕ್ಷರಸ್ವಾಂನಾಯಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ತತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಪುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನಿಯ ಲಘುಸಿದ್ಧಾಂತಕೌಮುದೀಂ. ಪದಾಂತೇ ಜಿಹಚ್ ಗೋ ಕಿಂ ಪದಾಂತೇ ಗೋ ಕಿಂ ಪದಾಂತೇ ಕಿಂ ಗೋಃ ತದ್ವಿಷಯೇ ವದಾಮಿ ಅಗ್ರಿಮಕಕ್ಷಾಯಾಂ. ರಾಮ ರಾಮ, ಧನ್ಯವಾದ. ಶುಭರಾತ್ರಿ ಸರ್ವೇಭ್ಯ. ಬುಧವಾಸರೆ ವರ್ಗ ಅಸ್ತಿ ವಾ? ಪ್ರಶ್ನ ತು ಸಮೀಚೀನಂ ವಿದ್ಯತೆ. अहमपि न जानामि यदि बेङ्गलूरुनगरे भवामि तर्हि अवश्यं वर्गस्य वर्गं स्वीकरोमि यदि बेङ्गलूरुनगरे न भवामि तर्हि वर्गस्य स्वीकारं न करोमि तत्र मम नगरान्तरगमनं विद्यते मुम्बैनगरगमनं विद्यते तत् मङ्गलवासरे एव ज्ञायते गन्तव्यं वा न वा इति यदि तत् नगरान्तरं गम्यते तत् सूचयामि मेल् द्वारा सूचयामि अवश्यम् Thank you.